एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। यमपञ्चक पर्वणः अन्तिमे दिवसे अद्य भातृटीका पर्व समायोज्यते, यत्र भगिन्यः स्वकीय भातृणाम् सुख समृद्धि दीर्घायुष्याणि अभिलष्य तान् टीकाम् परिधापयन्ति। टीकायाः परिधापनावसरे भगिन्यः धार्मिक विध्यनुसारेण मण्डपम् निर्माय अष्टानाम् चिरञ्जीवीनाम् यमस्य यमुनायाश्च पूजन पुरस्सरम् तैलधारया आविष्ट्य सप्तरंगमयीम् पञ्चरंगमयीम् वा टीकाम् दुर्वाम् च परिधाप्य मख मलि शतपत्रिकाणाम् मालाः समर्प्य विविध फल व्यञ्जन मिष्ठान्नानि प्रदाय च भ्रातृणाम् चिरायुष्यम् कामयन्ते। भ्रातरश्च भगिनी प्रपूज्य स्वशक्त्यनुसारेण ताभ्यः वस्त्रभूषणादीन् उपहारान् समर्पयन्ति। एतासाम् अटल सुख सौभाग्य समृद्धि चिरायुष्याणि च अभिलषन्ति। पूर्वम् कदाचित् स्वभवनम् प्राप्तो यमः तदीय भगिन्या यमुनया ससम्मानम् टीकाम् परिधाप्य फलपुष्पादीनि समर्प्य च अभ्यर्थित, ततः प्रवृत्ति भ्रातृभगिन्योर्मध्ये टीका परिधापन पूर्वकम् उपहार प्रदानस्य परम्परा प्रारब्धेति पौराणिकवृत्तम् वर्तते। भगिनी विहीनाः भ्रातरः अद्य काष्ठमण्डपस्य राजपुष्करिण्यः मध्ये अवस्थितस्य यमलेश्वर महादेवस्य दर्शन पूजने विधाय ललाटे तदीय प्रसादत्वेन टीकाम् परिददति। मन्दिरमिदम् प्रतिवर्षम् अस्मिन्नेव दिवसे उद्घाट्यते। अद्य भातृटीकायाः उत्तम मुहूर्तः पूर्वाह्नस्य एकोनचत्वारिंशत् कलोत्तरैकादशवादने अस्तीति नेपाल पञ्चाङ्ग निर्णायक विकास समित्या ज्ञापितम् वर्तते। अद्य मध्याह्नकाले कस्मिंचिदपि समये टीकायाः परिधापनम् कर्तुम् शक्यते, तथापि उत्तम मुहूर्तस्य अन्वेषकाणाम् कृते धनु लग्नस्य कन्या नवमांसस्य चरवेलायाः अभिजित योगस्य विजय मुहूर्तस्य च दृष्ट्या एकोनचत्वारिंशत् कलोत्तरैकादशवादने शुभ मुहूर्तः निर्धारितोऽस्तीति समितेः सदस्यः प्राध्यापकः देवमणि भट्टराई असूचयत्। राज्य सञ्चालकैः शुभमुहूर्ते एव टीका परिधापनीया, सत्यपि सर्वसाधारण जनानां कृते मध्याह्नस्य कस्मिंश्चिदपि समये टीकाधापनाय समस्या नास्तीति प्राध्यापकः भट्टराई प्रावोचत्। अत्रान्तरे राष्ट्रपति प्रवृत्तिभिः नेतृभिः यमपञ्चकः पर्वणः अवसरे शुभकामना सन्देशाः प्रदत्ताः वर्तन्ते। राष्ट्रपतिना पौडेलेन यमपञ्चक पर्वणा सम्पूर्ण नेपालीषु परस्परं सद्भावं सहिष्णुताम् भ्रातृत्वम् सुशासन समृद्ध्योर्भावनाम् च अतिरिक्तम् वर्धयितुम् उत्प्रेरणा भवतु इति कामना विहिता अस्ति। एतदवसरे राष्ट्रपतिना पौडेलेन स्वदेशे विदेशेषु च वर्तमानानाम् सम्पूर्ण नेपालीनाम् सुख शान्ति समृद्धिनाम् उत्तरोत्तरम् प्रगतेः कामना च विहिता अस्ति। एवमेव प्रधानमन्त्रिणा सुशीला कार्किणा शान्तेः समृद्धेः सुशासनस्य च आकांक्षाम् पूरयितुम् राष्ट्रिय संकल्पेन सह अग्रे वर्धितुम् अनुरुद्धम् वर्तते। प्रधानमन्त्रिणा कार्किणा यमपञ्चक पर्वणः महापूजाया षट्चत्वारिंशदुत्तरैकादशशततम नेपाल संवत्सरस्य षष्ठी पर्वणश्च अवसरे शुभकामना सन्देशं प्रदाय जेन्जी युवसन्ततेः आन्दोलनेन प्रदत्तानां विश्वासस्य दायित्वानां च सम्मानं कृत्वा समावेशिनः पारदर्शिनश्च शासनस्य मार्गस्य अवलम्बनस्य विषये सर्वकार स्पष्टोऽस्तीति उक्तं वर्तते। अवसरेऽस्मिन् प्रधानमन्त्रिणा कार्किणा प्रदत्ते सन्देशे षड्मासानाम् अभ्यन्तरे स्थिर सर्वकारस्य प्रदानस्य प्रतिज्ञया निर्वाचनस्य वातावरणस्य निर्माणाय दत्तचित्तो भूत्वा वर्तमान सर्वकारः प्रवर्तितोऽस्ति, तदर्थं राजनीतिकः संवाद सुरक्षास्थितौ सुधारस्य कार्यं च सन्तोषप्रदरूपेण अग्रे वर्धमानानि सन्तीति उल्लिखितं वर्तते। प्रधानमन्त्री सुशीला कार्की निगदति सर्वकारेण नेपाली मुद्रायां नेपाल संवत्सरस्य उल्लेखनाय पूर्वकार्याणि अग्रे वर्ध्यन्ते। षट्चत्वारिंशद उत्तर एकादश शततम नेपाल संवत्सरस्य प्रारभणस्य अवसरे काष्ठमण्डप भक्तपुर ललितपुरेषु पूर्वेद्युः आयोजिते पृथक पृथक विशेष कार्यक्रमे प्रधानमन्त्री कार्की नेपाली मुद्रायां नेपाल संवत्सरस्य उल्लेखनस्य विषये सम्बद्ध पक्षैः परामर्शं कृत्वा प्रक्रियायाः अग्रे वर्धनं करिष्यते इति प्रतिबद्धतां व्यक्तवती। तदवसरे प्रधानमन्त्री कार्की नेपालः अधुनापि विपन्नतां प्रतिकर्तुम् असमानतां समाप्तुम् च प्रयासरतोऽस्तीति चर्चयन्ति। समाजे स्थितां विपन्नताम् असमानताम् च समाप्य नेपाली जनतायाः आर्थिक स्तरस्य समुन्नतये शंखधर शाख्वाभिधेन प्रदर्शिते मार्गे सर्वैः प्रतिबद्धाः सन्तः प्रवर्तनीयमिति न्यस्चिनोत्। तदवसरे च प्रधानमन्त्रिणा कार्किणा जेएनजी युव सन्तत्या भ्रष्टाचारस्य विरूद्धे विहितस्य आन्दोलनस्य बलेन निर्मितेन नागरिक सर्वकारेण निर्धारिते एव दिनांके निर्वाचनं करिष्यते। संविधानस्य अनुसारेण जेएनजी युव सन्ततेः यथोचितान् याचनायाः विषयान् सम्बोध्य नेपाली जनतायै सेवा प्रदानस्य दायित्वस्य पूरणाय संलग्नतास्तीति च अगदत्। ह्य प्रधानमन्त्रिणा कार्किणा नूतन नेपाल संवत्सरस्य अवसरे भक्तपुरस्य ठिमीवर्तिन्यां शंखधर शाख्वाभिधस्य प्रतिमायां माल्यार्पणं सम्मानः व्यक्तश्चासीत् चेद् काष्ठमण्डपस्य वसन्तपुरे ललितपुरस्य मंगलबजारस्थाने च आयोजितौ विशेष समारोहौ सम्बोधितौ आस्ताम्। आराष्टम विद्यमानेषु वैष्णव मन्दिरेषु मिथिलाञ्चलेन सहितेषु तराई मधेश सस्य विभिन्नेषु जनपदेषु च विद्यमानेषु मठ मन्दिरेषु च पूर्वेद्युः अन्नकूट पर्व समायोजितं वर्तते। अन्नकूट पर्वणि षट् पञ्चाशतः प्रकाराणाम् अन्नानां भगवते समर्पणं कृत्वा भक्तजनेभ्यः प्रसादस्य रूपेण वितरणस्य परम्परा वर्तते। भगवता श्रीकृष्णेन पुरा गोवर्धन पूजायाः पश्चात् विभिन्न परिपाकान् निर्माय गोवर्धन पर्वताय भोग समर्पणं विहितम् आसीत्। भगवता श्रीरामचन्द्रेण च लंकायां विजयं प्राप्य अयोध्यायां प्रत्यावर्तनस्य प्रसन्नतायां षट् पञ्चाशत प्रकाराणां भोग समर्पणं विहितम् आसीदिति स्मृतौ ततः प्रवृत्ति गोवर्धन पूजायाः अवसरे अन्नकूटोत्सवस्य समायोजनस्य परम्परा प्रारब्धेति विज्ञाः वदन्ति। दीपावल्याः समापनेन सहैव जनकपुरधाम प्रवृत्तिषु क्षेत्रेषु षष्ठी पर्वणः पूर्वकार्याणि प्रारब्धानि वर्तन्ते। मिथिलाञ्चलस्य पौराणिकमहत्वस्य जनकपुरधाम्नः विभिन्नेषु रथतडागेषु अन्यत्र काष्ठमण्डपादीनां रडतडागेषु आराष्टम नदीनां तटेषु च षष्ठी पर्वणः समायोजनाय पूर्वकार्याणि प्रारब्धानि वर्तन्ते। रूपन्देही जनपदे जले निमज्य जनत्रयमृतं वर्तते। रूपन्देही जनपदस्य गैडहवा ग्रामपालिकायाः षष्ठवडा क्षेत्रस्य सूर्य पूजा घट्टस्थाने मूर्ति विसर्जनस्य क्रमे दान व कञ्चन नद्योः संगमस्थले निमज्य मायादेवी ग्रामपालिकायाः प्रथम वडा क्षेत्रस्य त्रयोदश वर्षीय अजय हरिजन पञ्चदश वर्षीय दीपु हरिजन अष्टाविंशति वर्षीय रोहित हरिजन च मृताः सन्तीति रूपन्देही प्रहरिणा ज्ञापितं वर्तते। नेकपा माओवादी केन्द्रस्य संयोजकः पुष्पकमल दाहाल प्रचण्डः निर्धारिते एव समये प्रतिनिधिसभा सदस्यानां निर्वाचनाय जेएनजी युव समूहस्य याचनायाः सम्बोधनत्वेन संविधानस्य संशोधनाय च बलं ददाति। धनुषा जनपदस्य रामगोपाल नगर समित्या पूर्वेद्युः आयोजिते कार्यक्रमे संयोजकः प्रचण्ड देशः सम्प्रति जटिल परिस्थितौ अस्ति इति चर्चयन् एतस्याः समस्यायाः समाधानं निर्वाचनेनैव भविष्यति इति उक्तवान् वर्तते। इति समाचाराः।